सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्। प्रथमतया अहम् एकं श्लोकं वदामि। क्षणशः कणशश्चैव विद्यामर्थं च साधयेत्, क्षणत्यागे कुतो विद्या, कणत्यागे कुतो धनम्। इत्युक्ते जीवने एकैकं क्षणमपि उपयुज्य विद्या साधनीया, समयस्य दुर्विनियोगम् अकृत्वा विद्यार्जनं करणीयम्। अपि च एकैकेन कणेन धनं सम्पादनीयम्। अत्र कणम् इत्युक्ते लेशमात्रं, तथा कुर्मः चेदेव धनं वर्धते। यथा धनं सम्पादयामः तथा एव विद्यार्जनविषये अपि कालहरणम् अकृत्वा विद्या सम्पादनीया। यदि क्षणं नष्टं चेत् विद्या न सिद्ध्यति। परन्तु अत्र वयं विद्यार्जनविषये एव वयं चिन्तनं कुर्मः, न तु धनसम्पादनविषये। अतः वयं कालयापनं विना संस्कृतभाषाध्ययनार्थं सक्रियाः भवामः। उत्तमम्। अधुना गते सप्ताहे तत्र गृहपाठः आसीत्, किञ्चित् कालं गृहपाठविषये चिन्तनं कुर्मः, तदनन्तरम् अभ्यासपुस्तके किं दत्तमस्ति इति अपि ज्ञास्यामः। अद्य इतोपि नूतनानि पदानि ज्ञास्यामः। प्रथमतया उषा भगिनी गृहपाठविषये किञ्चित् वदतु।
आं भगिनि, कति कुत्र किं कुत्र कति गता, कुतः कथं किमर्थं, सप्तकः ककारः उपयुज्य एकं वाक्यं लिखामि। फेब्रवरी मासस्य चतुर्दशे दिनाङ्के प्रातःकाले जम्मूनगरतः गच्छन्तः भारतस्य चत्वारिंशत् सैनिकाः मार्गे आतङ्कवादीनाम् आक्रमणेन राष्ट्राय रक्षणार्थं प्राणान् अत्यजन्।
वाह्, सुन्दरं सुन्दरम्। उत्तमम्। उत्तमं वाक्यं। धन्यवादः।
नमस्ते महोदय।
नमस्ते। अधुना अशोभा भगिनी श्रावयतु वाक्यम्। भगिनी
ओ भवती क्षम्यतां भगिनी, म्यूट् आसीत्। अध्यापिका अद्य कक्षायां पञ्चकरपत्राणि मेरिलैंडतः अन्तर्जालस्य माध्यमेन अस्मान् अध्यापनार्थं प्रेषितवती।
वाह, सुन्दरं सुन्दरं।
धन्यवादः भगिनी।
अनन्तरं भूमा भगिनी श्रावयतु।
रामः प्रदर्शिन्यां बहवः भावचित्राणि त्रीणि दिनपर्यन्तम् आनन्दार्थं कुतूहलेन दृष्टवान्। सम्यक् अस्ति भगिनि?
सम्यक्। पुनः एकवारं वदतु भगिनि।
रामः प्रदर्शिन्यां बहवः भावचित्राणि त्रीणि दिनपर्यन्तम् आनन्दार्थं कुतूहलेन दृष्टवान्।
सम्यक् एव। केवलम् अत्र बहूनि
बहूनि बहवः सम्यक् नास्ति। ओ
सम्यक् एव।
धन्यवादः। बहूनि
धन्यवादः। गीताञ्जलि भगिनी श्रावयतु। दीर्घं वाक्यं लिखितवती वा
भगिनी? अहं लिखितवती, किन्तु अधुना न पार्श्वे अनन्तर समीपे नास्ति कथं न जानामि
इत्युक्ते भवत्याः पार्श्वे नास्ति वा अधुना वाक्यं नास्ति वा
अस्तु अस्तु भगिनि अनन्तरम् अहं
अस्तु चिन्ता मास्तु चिन्ता मास्तु वंशीसुधा भगिनि श्रावयतु लिखितवती वा एकं वाक्यम्
आं भगिनि द्वौ वाक्यानि लिखितवती कृपया श्रावयतु कृपया सम्यक् करोतु समीकरोतु धीरः तीव्रः द्वौ सिंहौ वने वृक्षतः द्विनेत्रया सूर्यास्तसमये मृगयया पश्यति धीरः तीव्रः द्वौ सिंहौ वने वृक्षतः द्विनेत्रया सूर्यास्तसमये मृगयया पश्यति
अत्र तत्र तृतीयान्तं रूपं पदं सम्यक् न अवगतवती तृतीयान्तं रूपम् अस्ति
मृगयया मृगयया इत्युक्ते हण्टिङ्ग् फार् हण्टिङ्ग्
मृगया
स्त्रीलिङ्गे एव न भगिनि मृगया या मृगयया
मृगया एव श्रुतवती मृगयया इति न श्रुतवती अनन्तरं
पश्यामः चिन्तयामि
तस्मात् पूर्वम् अन्यं पदमस्ति तृतीयान्तं पदम् अन्यं पदमस्ति तत्
द्विनेत्रया इत्युक्ते बैनोक्युलर्
ओ द्विनेत्रया
द्विनेत्रया
अस्तु अस्तु कोऽपि जानाति वा सम्यक् पदं बैनोक्युलर्स् इत्युक्ते किं वदामः सम्यक् भगिनि अनन्तरम्
एकः अन्यवाक्यमस्ति मम लक्ष्मी अध्यापिका दशछात्रान् संस्कृतम् अभ्यासपुस्तकतः अन्तर्जाले ध्वनिसन्देशेन सायङ्काले पाठयति
सायङ्काले पाठयति सम्यक्
सम्यक् भगिनि
सम्यक् एव
मम लक्ष्मी अध्यापिका सम्यक् भगिनि
मम अध्यापिका
अध्यापिका
अनन्तरम् अत्र पूर्वं तत्र मम पार्श्वे द्वे वाक्ये स्तः द्वे वाक्ये अत्र किमर्थं चेत् अत्र द्विवचने वक्तुमिच्छति भवती
वाक्यम् इति नपुंसकलिङ्गम् इत्युक्ते द्वे इति योजयामः इति सम्यक् अहं द्वौ इति वदामि क्षम्यतां भगिनि
अहं द्वौ उक्तवती अथवा उदितवती किमर्थं वदामि इत्युक्ते अद्य अस्माकं विषयः अस्ति तव तु प्रत्ययान्तरूपाणि अनन्तरम् अत्र विलम्बेन केनापि आगतं वा अत्र 970 अत्र
आं महोदय अहं भानुलेखनी अस्मि क्षम्यतां
स्वागतं महोदय भवान् लिखितवान् वाक्यं दीर्घं वाक्यं
दीर्घवाक्यं न लिखितं महोदय
अस्तु महोदय चिन्ता मास्तु अधुना वयम् अत्र पुनः एकवारम् उषा भगिनी अत्र गते सप्ताहे वयम् एकं सम्भाषणं पठितवन्तः तस्मिन् सम्भाषणे सप्तककारान् योजयित्वा सम्भाषणं दत्तमस्ति तत्र सम्भाषणम् आधारीकृत्य अत्र प्रश्नाः सन्ति प्रथमतया भवती प्रश्नं वदतु अनन्तरम् उत्तरमपि भवती एव उत्तरं ददातु. नो चेत् अत्र अत्र प्रश्नवाचकवाक्यमेव लेखनीयमिति भाति. आम् इत्युक्ते केवलम् अत्र उत्तरं दत्तमस्ति, प्रश्नवाचकवाक्यम् एव लेखनीयम्.
आं भगिनि
करोतु.
One minute. प्रथमवाक्यं किम् अस्ति भगिनि?
अस्य नाम सुधीरः. अत्र अभ्यासः इत्युक्ते कोष्टके प्रदत्तानि पदानि उपयुज्य यथोचितं प्रश्नान् रचयन्तु. अत्र सम्भाषणस्य आधारेण अत्र प्रश्नाः सन्ति.
अधोलिखितेषु वाक्येषु वर्ण
न न भगिनि, तस्मात् पूर्वं तस्मात् पूर्वम्
ओके.
कोष्टके भवन्तः जानन्ति एव, एतानि सुलभानि एव. शोभा भगिनी भवती कर्तुम् इच्छति वा?
आं भगिनि.
प्रथम,
अस्य नाम रघुवीरः. अस्य नाम किम्? रघुवीरः प्रातः योगाभ्यासं करोति. रघुवीरः कदा योगाभ्यासं करोति? रघुवीरः प्रतिदिनं सूर्यनमस्कारान् करोति. रघुवीरः
अस्मिन् वाक्ये कर्मपदं किम्?
सूर्यनमस्कारम्.
उत्तमम्. सूर्यनमस्कारान् इति दत्तमस्ति, अतः द्वितीय बहुवचनं.
आं भगिनि.
प्रथमविभक्तौ एकवचनरूपं किं?
रघुवीरः.
रघुवीरः कर्ता, परन्तु कर्मपदं कर्मपदं सूर्यन प्रतिदिनम् इति पदमस्ति, परन्तु अहं किं पृष्टवती इत्युक्ते सूर्यनमस्कारान् इति पदं द्वितीयाविभक्ति बहुवचने अस्ति, परन्तु तस्य प्रथमाविभक्ति एकवचनं किम्?
सूर्यनमस्कारः.
उत्तमं, तावदेव.
रघुवीरः प्रतिदिनं सूर्यनमस्कारान् करोति. चतुर्थी, रघुवीरस्य योगशाला कार्यालयस्य निकटे अस्ति. रघुवीरस्य योगशाला कुत्र अस्ति?
उत्तमम्. अत्र वयं पूर्वमेव चर्चितवन्तः, अत्र निकटे इति पदमस्ति. साधारणतया केचन जनाः सकाशे, सविधे एतानि पदानि अपि योजयन्ति. अत्र सकाशे, सविधे अथवा समीपे, पार्श्वे, एतानि सर्वाणि समानार्थकानि. अनन्तरं
आरोग्यं सम्यक् अस्ति. आरोग्यं सम्यक् अस्ति. आरोग्यं कथम् अस्ति? अनन्तरं सुनीता, रघुवीरः च स्वास्थ्यसंरक्षणार्थं योगासनं कुरुतः. अत्र किमर्थम्
अत्र कुरुतः किमर्थं दत्तमस्ति?
कुरुतः द्विवचने मध्यमपुरुषः अस्ति. कुरुतः
भगिनी, अत्र केवलम् अत्र कुरुतः केवलं कुरुतः इति दत्तमस्ति, न तु कुरुतः. तत्र भेदः अस्ति.
पठति, पठि, पठतः, पठन्ति, करोति, कुर्वन्ति कुरुतः
तावदेव तावदेव इत्युक्ते अत्र प्रथमपुरुष द्विवचनं
हा प्रथमपुरुष आं भगिनि
अनन्तरम्
अनन्तरं तस्य सिक्स् सुनीता रघुवीरः च किमर्थं योगासनं कुरुतः अन्तिमं रघुवीरः चिकित्सालयतः आगच्छति कुतः आगच्छति रघुवीरः कुतः आगच्छति
उत्तमं तावदेव धन्यवादः अनन्तरम् अधुना अत्र भूमा भगिनी भवती अग्रिमं किं दत्तमस्ति तत्र अवधेयम् इति पठतु
अवधेयम् अधोलिखितेषु वाक्येषु अवधेयं किं कुत्र कति कदा कुतः कथं किमर्थम् इति एते प्रश्नवाचकाः शब्दाः सन्ति
भगिनी अत्र एकवारम् अत्र एकवारं स्थगयतु वयं गते सप्ताहे कृतवन्तः एतत् क्षम्यताम् इत्युक्ते किमर्थम् इत्युक्ते मम मङ्गलवासरछात्राणां कृते अहं चिन्तितवती वयं कृतवन्तः चेत् वयं त्यजामः
अधोलिखितेषु वर्णरञ्जितपदानाम् आधारेण प्रश्ननिर्माणं कुर्वन्तु अस्माकं देहे पञ्चवायवः सन्ति अस्माकं देहे कति वायवः सन्ति
उत्तमं यदि भवती जानाति चेत् तेषां नामानि वदतु
नामानि
इत्युक्ते अत्र अस्माकं देहे पञ्चवायवः सन्ति इति वाक्यमस्ति भवती यद् उक्तवती तत् सम्यक् एव इत्युक्ते कति वायवः सन्ति प्रश्नवाचिवाक्यं परन्तु अत्र तेषां नामानि तावदेव वंशसुत भगिनी वदतु
प्राण अपान उदान समान व्यान
तावदेव उत्तमं इत्युक्ते प्राणवायुः अपानवायुः व्यानवायुः उदानवायुः समानवायुः उत्तमं ते एव पञ्चवायवः अत्र वायवः वायवः इति रूपं किं भगिनि
बहुवचनं
बहुवचनं तावदेव अनन्तरं
नागेशः पञ्चवादने उत्तिष्ठति नागेशः कदा उत्तिष्ठति योगः नाम चित्तवृत्तिनिरोधः योगः नाम किम्
अत्र किञ्चित् चिन्तनं कुर्मः अत्र साधारणतया अहं कक्षायाम् इत्युक्ते किम् इति अहं वदामि परन्तु तस्मिन् स्थाने नाम किम् इति अपि वक्तुं शक्नुमः इत्युक्ते भगिनी नाम किम् इति वदामः परन्तु अत्र उत्तमं वाक्यं दत्तमस्ति योगः नाम योगः नाम चित्तवृत्तिनिरोधः बहु सुन्दरं वाक्यं बहु सुन्दरं वाक्यं किमर्थं चेत् ह्यः सायङ्काले अहं दृष्टवती अत्र पतञ्जलिना लिखितं योगशास्त्रं तत्र योगसूत्राणि सन्ति पतञ्जलिमहर्षिणा लिखितानि सूत्राणि योगसूत्राणि तस्य नाम अस्ति योगदर्शनशास्त्रं योगदर्शनशास्त्रम् अत्र प्रथमं सूत्रमस्ति अथ योगानुशासनं द्वितीयं सूत्रम् एव योगः चित्तवृत्तिनिरोधः योगः चित्तवृत्तिनिरोधः इति सूत्रं योगदर्शनशास्त्रे द्वितीयं सूत्रम् योग साधारणतया वयं योग योग इति वदामः परन्तु योगः इत्युक्ते किम् इति एव अत्र प्रश्नः योगः इत्युक्ते चित्तवृत्तिनिरोधः इत्युक्ते किम्
इत्युक्ते मनपरिवर्तन परिवर्तन सम्यक् परिवर्तनम् अस्ति.
शोभा भगिनी वदतु अत्र चित्तवृत्तिनिरोधः.
चित्तस्य वृत्ति मीनिङ्ग् संस्कारानि निरोधः, गेटिङ्ग् रिड् आफ् आल् द चित्त संस्कारास्.
वंशसुधा भगिनी वदतु चित्तवृत्तिनिरोधः.
अन्तःकरणचतुष्टये त्रयः अस्ति, चत्वारि अस्ति, चत्वारि मनः बुद्धि चित्त अहङ्कार. चित्तः त्रयः स्थानं अस्ति. चित्तं मनः मूले यत् अस्ति तत् चित्तम् अस्ति. चित्तम् एव मम कार्याणि सर्वे कार्याणि इति प्रेरयति. चित्तं यत् पतञ्जलि उक्तवान् चित्तं यदि अहं निरोधं करणीयः एव तथा अहं प्रापञ्चिककार्याणि सम्यक् एव अस्ति इति अहं चिन्तयामि भगिनि.
अस्तु, अनन्तरम् अत्र उषा भगिनी भवती किं वक्तुमिच्छति? चित्तवृत्तिनिरोधः.
चित्तवृत्तिनिरोधः
बहु सरलमेव भगिनि, अत्र बहु सरलम्. अत्र आङ्ग्लभाषायां वदामि, योगः इत्युक्ते इट्स् अ टेक्निक् टु स्टाप् युवर् मैण्ड्. इट्स् अ टेक्निक् दट् इस् अल्टिमेट् गोल् बिकास् मन एव मनुष्याणां कारणं बन्धमोक्षयोः. आल् द टैम् वि स्ट्रगल् बिकास् आफ् अवर् मैण्ड्.
बट् हौ डु यु स्टाप् युवर् मैण्ड्?
That is the technique. That's what one should practice. Pustake, Yoga Darshi. What is it?
I think like when all the parts in your body is working, how could you stop your mind to work when you do meditation?
That is the logic. Sayeva tarkaha. Sayeva tarkaha. Ichukte tadarthamegava dhyanam karaniyam. Dhyanaha avashyakaha. Dhyanam ichukte kevalam. अत्र ऐ बिलीव् दट् इस् चित्तवृत्तिनिरोधः इत्युक्ते लर्न् टु स्टाप् युवर् मैण्ड् वेन् एवर् यु रियल्लि वाण्ट्. अदर्वैस् द मैण्ड् विल् वाण्डर् आल् द टैम्. देन् वेन् एवर् यु रियल्लि नीड् टु फोकस् आन् सच् एन् इम्पार्टेण्ट् थिङ्ग्स् देन् इट् मे नाट् बि अवैलबल् फार् यु. दट् कान्सन्ट्रेशन् विल् बि लेकिङ्ग्.
योगाभ्यासेन सेल्फ् कण्ट्रोल् आत्म
अभ्यासेन अध्ययनं. भगवद्गीतायां श्रीकृष्णः वदति अभ्यासेन तु कौन्तेन अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते. मनः मैण्ड् कण्ट्रोल्, हौ केन् यु मेक् द मैण्ड् कण्ट्रोल् मीन्स् ही गेव् टु सजेशन्स् इन् भगवद्गीता. अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते इत्युक्ते वित् द हेल्प् आफ् प्राक्टिस् अण्ड् वैराग्य बोत् आर् नीडेड्. उत्तमम्. अनन्तरम् अत्र अत्र चतुर्थं करोतु भगिनी. अत्र
हस्ते पञ्च अङ्गुल्यः सन्ति. हस्ते कति अङ्गुल्यः सन्ति? अष्टाङ्गयोगकेन्द्रं मैसूरुनगरे अस्ति. अष्टाङ्गयोगकेन्द्रं कुतः अस्ति? कुत्र अस्ति? सप्तमी विभक्ति मैसूरुनगरे कुत्र अस्ति? वायुः नासिकातः प्रविशति. वायुः कुतः प्रविशति?
उत्तमम्. अत्र केवलं किं वदामि इत्युक्ते अत्र प्रा उपसर्गपूर्वकः विष् धातुः. विष् धातुः अस्ति. प्रा उपसर्गपूर्वकः विष् धातुः सकर्मकधातुः. वयं पूर्वमेव चर्चितवन्तः उप उप उपसर्गपूर्वकः विश् धातुः अकर्मकः, परन्तु अत्र भेदः प्रविशति उपविशति तयोर्मध्ये भेदः अस्ति अत्र अनन्तरं
जयनगरं
किं दत्तमस्ति वदतु भगिनि
जयपुरनगरं सुन्दरम् अस्ति
क्षम्यतां भगिनि पुनरेकवारं वदतु भगिनि प्रविशति मम जालपुटे किञ्चित् क्लेशः अस्ति पुनरेकवारं वदतु भगिनि
अत्र प्राव् उपसर्गपूर्वकः विश् धातुः सकर्मकधातुः कथं वाक्यं रचयामः अहं गृहं प्रविशामि सा गृहं प्रविशति इति अत्र गृहम् इति पदं द्वितीयाविभक्तौ अस्ति प्रविशति इति क्रियापदं कर्मपदं स्वीकरोति परन्तु उपविशति उपविशति इति क्रियापदं अकर्मकक्रियापदम् अतः सः उपविशति सः आसन्दे उपविशति आसन्दे इति रूपं सप्तमी रूपं तत्र कर्मपदं न सम्भवति उपविशति इति अकर्मकक्रियापदं केवलं तत्र मूलधातुः विषये वा मूलधातुः विषये वा परन्तु अत्र भिन्न उपसर्गं योजनेन तत्र भिन्न अर्थः अर्थं सम्भवति तथा एव अत्र क्रियापदस्य रूपमपि परिवर्तनं भवति
उपा इति उपसर्गे सर्वाणि पदानि एव अकर्मकक्रियाणि क्रियापदानि सन्ति भगिनि
तथा न वक्तुं शक्नुमः परन्तु केवलम् अत्र एतत् अहं ज्ञातवती तदर्थं वदामि अनन्तरं
धन्यवादः
अनन्तरं
जयपुरनगरं सुन्दरमस्ति जयपुरनगरं कथमस्ति राष्ट्रभक्तिः अस्माकं रक्ते अस्ति
अत्र पश्यन्तु सर्वे अत्र राष्ट्रभक्तिः इति पदमस्ति साधारणतया भक्तिः अत्र एते मुख्यबिन्दवः किमर्थं वदामि चेत् सप्तमीविभक्तौ वाक्यं रचयामश्चेत् तत्र साधारणतया भक्तिः श्रद्धा आदरः विश्वासः स्नेहः एतानि पदानि सन्ति चेत् साधारणतया तत्र वाक्ये वाक्यं सप्तमी विभक्तौ भवति इत्युक्ते अत्र पश्यतु भगिनि अत्र राष्ट्रभक्तिः अस्माकं रक्ते अस्ति अत्र तथा एव अत्र अग्रिमं वाक्यं जनानां योगे जनानां श्रद्धा अस्ति उत्तमं योगे जनानां श्रद्धा अस्ति इत्युक्ते अत्र योगे इति पदं सप्तम्यन्तरूपं यदा वयं भक्तिः श्रद्धा विश्वासः आदरः स्नेहः प्रेम इति पदानि योजयित्वा एतानि पदानि योजयित्वा वाक्यं रचयामश्चेत् तदा साधारणतया सप्तमीविभक्त्यन्तपदं योजयामः तस्मिन् वाक्ये अनन्तरं
हिमालयतः गङ्गा प्रवहति गङ्गा कुतः प्रवहति जनाः स्वास्थ्यसंरक्षणाय योगाभ्यासं कुर्वन्ति जनाः किमर्थं योगाभ्यासं कुर्वन्ति चेन्नैनगरे कृष्णमाचार्ययोगमन्दिरम् अस्ति कृष्णमाचार्ययोगमन्दिरं कुत्र अस्ति
उत्तमम् अत्र अस्मिन् वाक्ये योगे जनानां श्रद्धा अस्ति इत्यस्मिन् वाक्ये अत्र योगे इति सप्तम्यन्तरूपं श्रद्धा इति पदं प्रथमान्तम् अत्र यथा अहं पूर्वमेव उक्तवती जनानां श्रद्धा कुत्र अस्ति जनानां श्रद्धा योगे अस्ति अत्र जनानां श्रद्धायाः आधारः एव श्रद्धा अतः अत्र सप्तमीविभक्तौ योगे इति पदं दत्तमस्ति इत्युक्ते अत्र विषयरूप आधारः इति वदामः अत्र साधारणतया सप्तमीविभक्तेः अर्थः कः इत्युक्ते अधिकरणसप्तमी इति वदामः सः कुत्र अस्ति सः गृहे अस्ति तत्र अधिकरणसप्तमी इति वदामः, परन्तु अस्मिन् वाक्ये आधारसप्तमी अस्ति. तत्र तयोर्मध्ये किञ्चित् भेदः अस्ति. अनन्तरम् उत्तमं भगिनि, अनन्तरं गीताञ्जलि भगिनी भवती पठति अग्रिमे.
एकः प्रश्नः, वहति अपि प्रवहति एतानि पदयोः मध्ये पार्थक्यं कः भगिनि?
अत्र प्रवहति, अत्र धातुः अस्ति वह् धातुः, वह् धातुः प्र उपसर्गपूर्वकः, प्र उपसर्गं योजनेन प्रवहति इति क्रियापदम् आगच्छति. वहति प्रवहति तत्र अर्थभेदः नास्ति, केवलम् अत्र उपसर्गं योजनेन तत्र कदाचित् कुत्रचित् अर्थभेदः भवति, कुत्रचित् अर्थपरिवर्तनं न भवति, कुत्रचित् यदि पदं परस्मैपदे अस्ति चेत् आत्मनेपदीरूपं भवति, तथा एव कुत्रचित् विरुद्धार्थक अर्थः आगच्छति. तत्र यदि उपसर्गं योजनेन किं भवति इत्यस्मिन् विषये पञ्च विषयाः सन्ति. इत्युक्ते when you add the upasarga, the verb will change in the verb, five different changes can happen. Tatra arthaha tadha yadha, arthaha tatra yadha asti tadha eva tishtati tat ekaha. Anantaram artha parivartanam bhavati yadha kadapi viruddhartha arthaha api agachati. अनन्तरं यदा यदि पदं परस्मैपदी अस्ति चेत् आत्मनेपदी भवति, तथा भिन्नभिन्नपरिवर्तनानि भवन्ति. तत्र द्वाविंशतिषु तत्र तत्र एकैकस्य उपसर्गस्य भिन्न अर्थः भवति, तदा उपसर्गं भिन्न उपसर्गं योजनेन भिन्न अर्थः अपि भवितुम् अर्हति.
अत्र भगिनि यथा प्रारब्धः प्रायोगः आरब्धः सेट् इन् मोशन् यतः नदीः अस्ति प्रवहति मीनिङ्ग् इस् डस् इट् एम्फसैज़् आन् द मीनिङ्ग् भगिनि प्रवहति
अत्र अहं पूर्वं किम् उक्तवती इत्युक्ते अत्र प्र उपसर्गपूर्वकः प्रा इत्यस्य अनन्तरम् आ अपि अस्ति प्रायोगः आयोगः रभ्
अस्तु भगिनि
तत्र सवर्णदीर्घसन्धिं कुर्मः चेत् प्रारब्ध इति मूलरूपम् आगच्छति, तदा एव तत्र प्रारब्धम् अथवा प्रारब्धः इति भवति. परन्तु अस्मिन् पदे इत्यस्मिन् पदे नास्ति. अत्र प्रवहति वहति वहति इति वयं जानीमः. अत्र वह् धातोः तत्र बहवः नियमाः सन्ति. किमर्थं चेत् अत्र नदी नदी वहति इति वाक्यमस्ति, तथा एव सः भारं वहति इत्यपि अर्थः अस्ति.
अस्ति
तत्र इत्युक्ते नदी वहति अथवा नदी प्रवहति तत्र अर्थः भिन्नः, परन्तु बालकः भारं वहति तत्र अर्थः किञ्चित् भिन्नः. अत्र प्रवहति वहति प्रवहति तयोर्मध्ये तावत् भेदः नास्ति.
आं भगिनि, धन्यवादः.
तत् अहं चिन्तयामि. अत्र उषा भगिनी भवती किं चिन्तयति?
किं भगिनि?
अत्र वहति अपि च प्रावोपसर्गं योजनेन प्रवहति इति भवति, वहति प्रवहति तयोर्मध्ये अहं चिन्तयामि तावत् भेदः नास्ति, केवलं
उपसर्ग इट् हेस् डिफरेण्ट् मीनिङ्ग् वेन् इट् comes into different sentences.
Uttamam. Tavadeva. Anantaram. Atra.
Mahode.
Vadat mahode.
Prakarshena vahati iti chintanam samyakva. Tibram tibravegena pravahati iti.
सम्यक् इत्युक्ते अत्र वहति नदी वहति यदि प्रवहति तत्र किं वदन्ति केचन जनाः वदन्ति प्रा इति उपसर्गस्य अर्थः प्रकृष्ठेन प्रकृष्ठेन इति अर्थः प्रा इत्युक्ते अत्र प्रकृष्ठेन इत्युक्ते इतोपि वेगेन प्रवहति इतोपि वेगेन इति वक्तुं शक्नुमः
प्रवाहमपि अस्ति भगिनि
प्रवाह तत्र अत्र वहधातुतः एव
प्रवाहः
तावदेव इत्युक्ते अत्र वहधातुतः एव प्रवाहः अथवा प्रवाहः एतानि पदानि आगतानि यदा महोदयः उक्तवान् यदि नदी वहति नदी प्रवहति इत्युक्ते नदी वेगेन प्रवहति इति वक्तुं शक्नुमः इत्युक्ते अत्र प्रा उपसर्गं योजनेन अत्र किम् अभवत् इत्युक्ते अत्र द मीनिङ्ग् वास् मोर् एम्फसैस्ड् तथा अहं चिन्तयामि
महोदय मया दीर्घवाक्यं लिखितं
वदतु महोदय
दीर्घवाक्यं महोदय
वदतु
एकः जिज्ञासुशिष्यः ज्ञानपिपासया प्रेरितः गुरोः पार्श्वे कञ्चन समित्पाणीन् नीत्वा सद्गुरवे नमः उक्त्वा आश्रमे समर्पयति
आश्रमे
समर्पयति
आश्रमे समर्पयति अस्तु अनन्तरम् अत्र अत्र इतोपि किं दत्तमस्ति अत्र अधुना गीताञ्जलि भगिनी भवती पठतु अत्र एतस्य अत्र वीरभद्रासनम् इत्यस्मिन् विषये किञ्चित् दत्तमस्ति पठामः भवती एव पठतु अत्र प्रश्नः उत्तरम्
अस्तु महोदय एकः प्रश्नः अस्ति वाक्य नागेशः पञ्चवादने उत्तिष्ठति नागेन कति वादने उत्तिष्ठति इति सम्यक् वा
कदा उत्तिष्ठति
कदा सम्यक् अस्मि कति वादने न सम्यक् अस्ति
कति वादने न कदा उत्तिष्ठति
अस्तु अस्तु भगिनि धन्यवादः प्रश्नः एतस्य आसनस्य नाम किम् उत्तरं वीरभद्रासनम् प्रश्नः अस्य आसनस्य समये दृष्टिः कुत्र स्थापनीया उत्तरं साक्षात् अग्रे प्रश्नः एतस्य आसनस्य अन्तिमस्थितौ कति श्वासा स्वीकरणीयाः उत्तरम् आरम्भे चतुर्वारं श्वासोच्छ्वासः पर्याप्तः प्रश्नः एतस्मिन् आसने कदा उच्छ्वासः करणीयः उत्तरं यदा भवान् पुरतः विद्यमानं जानुवक्रं कुर्वन् हस्तौ उपरि नयति तदा उच्छ्वासः करणीयः प्रश्नः कुतः एकः पादः पुरतः प्रसारणीयः उत्तरं समस्थितिः एकः पादः पुरतः प्रसारण्यः. प्रश्नः, इदानीं पृष्ठतः विद्यमानस्य पादस्य जानु कथं भवेत्? उत्तरं, तत् ऋजु भवेत्, वक्रं न करणीयम्. प्रश्नः, एतत् आसनं किमर्थं करणीयम्? उत्तरम्, अस्य आसनस्य अनेकानि प्रयोजनानि. प्राधान्येन वक्षः स्थलस्य विस्तारणार्थं ततः च श्वासप्रश्वासक्रियायाम अवरोधनिवारणार्थं वीरभद्रासनं सः करोति.
उत्तमम्. इत्युक्ते अत्र वीरभद्रासनं इत्युक्ते किं, तस्मिन् विषये किञ्चित् दत्तमस्ति. आसनं कथं करणीयम् इत्यस्मिन् विषये अधुना वयं किञ्चित् एतेषां वाक्यानां विषये चिन्तनं कुर्मः. एतस्य आसनस्य नाम किं वदतु भगिनि?
एतस्य आसन नाम वीरभद्रासनं.
अत्र सर्वे अत्र चित्राणि सन्ति, त्रीणि चित्राणि सन्ति, परन्तु सम्यक् न सन्ति. सप्तभिः ककारैः आसनप्रश्नोत्तरे तत्र त्रीणि चित्राणि सन्ति. सर्वे चित्रं पश्यन्तु, तथा किञ्चित् अवगन्तुं शक्नुमः. भवती जानाति वा भगिनि वीरभद्रासनं?
आम् आं भगिनि.
अस्तु. अस्य आसनस्य समये दृष्टिः कुत्र स्थापनीया?
अस्य आसनस्य समये दृष्टिः साक्षात् अग्रे उपरि उपरि स्थापनीया.
अत्र अस्मिन् वाक्ये साक्षात् अग्रे इति दत्तमस्ति. अग्रे इत्युक्ते उपरि इति अहं चिन्तयामि. अनन्तरम् अत्र दृष्टिः इति पदमस्ति. दृष्टिः इति पदस्य लिङ्गं किम्?
स्त्रीलिङ्गपदम् अस्ति.
तस्य विशेषणं, तस्मिन् वाक्ये दृष्टिः इति पदस्य विशेषणं किम्?
दृष्टिः प्रथमाविभक्ति एकवचनम्.
दृष्टिः, परन्तु अत्र अस्मिन् वाक्ये दृष्टिः इति पदस्य विशेषणम् एव स्थापनीया. दृष्टिः स्थापनीया कुत्र? साक्षात् अग्रे. कदा? आसनस्य समये. अनन्तरम्, एतस्य आसनस्य अन्तिमस्थितौ कति श्वासाः स्वीकरणीयाः? श्वासाः स्वीकरणीयाः. अत्र अत्रापि विशेषणविशेष्यभावः अस्ति. श्वासाः, अहं चिन्तयामि श्वासा इति पदं स्त्रीलिङ्गपदं, परन्तु बहुवचने किं भवति वदतु?
श्वासाः.
श्वासाः स्वीकरणीयाः. कति श्वासाः स्वीकरणीयाः? कति श्वासाः स्वीकरणीयाः?
आरम्भे चतुर्वारं श्वासः पर्याप्तः.
अत्र श्वासोच्छ्वासः, अत्र सन्धिः कः वदतु?
श्वास उच्छ्वासः. श्वास उच्छ्वासः सन्धि विसर्ग विसर्गलोप अभवत्.
अत्र भगिनी, अत्र श्वासा उच्छ्वासः.
श्वासा
अत्र किमस्ति इत्युक्ते केवलम् आकार उकारयोः मेलनेन किम् अभवत्?
उकारमेलनेन
किम् अभवत्? किम् अभवत्?
ओकार अभवत्, गुणसन्धि.
उत्तमं, तावदेव. अत्र अत्र किं दत्तमस्ति, चतुर्वारं श्वासोच्छ्वासः पर्याप्तः. चतुर्वारम् इति पदं दत्तमस्ति. चतुर्वारम् इत्युक्ते किं?
चतुर्वारम् इत्युक्ते चतुर् श्वास स्वीकरणीय.
अत्र चतुर्वारम् इत्युक्ते अत्र वंशीसुधा भगिनी वदतु, चतुर्वारम् इत्युक्ते किम्?
भगिनी अहं चिन्तयामि द्वितीया विभक्ति अस्ति चतुर्वारम्.
अत्र साधारणतया वयं अत्र संस्कृतभाषायां वारम् इत्युक्ते किम्?
वारम् इत्युक्ते आङ्ग्लभाषा अहं वदामि भगिनि, टैम् इति किं वदामि, संस्कृतभाषा एवम् अहं न, वारम् इत्युक्ते नम्बर् आफ़् टैम्स् इति अहं चिन्तयामि.
उत्तमं, नम्बर् आफ़् टैम्स्.
संस्कृतभाषा किं वदामि भगिनि?
चतुर्वारमेव, एकवारं, द्विवारं, त्रिवारम्. अहं बहुवारम् अहम् एकवारम् उक्तवती, बहुवारम् उक्तवती, परन्तु सः न शृणोति इति वदामः चेत् तत्र वारं, वारम् इत्युक्ते
नम्बर् आफ़् टैम्स्,
नम्बर् आफ़् टैम्स्.
अत्र चतुर्वारं
पर्यायं तथा एव, वारमेव तत्र सुलभं,
सुलभं
चतुर्वारम्. अनन्तरम् अत्र चतुर्वारं श्वासोच्छ्वासः पर्याप्तः. एतस्मिन् आसने कदा उच्छ्वासः करणीयः वदतु, तस्य उत्तरं किम्?
यदा भवान् उरतः विद्यमानं जानु वक्रं कुर्वन् हस्तौ उपरि नयति तदा उच्छ्वासः करणीयः.
वाक्यम् अवगतवती वा? अत्र अस्मिन् वाक्ये बहूनि नूतनानि पदानि सन्ति. अत्र भवान्, यदा भवान् पुरतः विद्यमानं जानु, अत्र विद्यमानम् इति पदमस्ति, कोऽपि जानाति चेत् वदन्तु. तत्र बहु नूतनं पदम्. अत्र यदि भवन्तः श्रुतवन्तः चेत् अत्र क्रियापदानि त्रिविधानि, कथं परस्मैपदिनः, आत्मनेपदिनः, उभयपदिनः, त्रिविधानि क्रियापदानि सन्ति. अत्र आत्मनेपदी रूपमस्ति विद्यते. विद्यते इत्युक्ते तस्य अर्थः कः इत्युक्ते केवलम् अस्ति एव. अत्र अस्ति इत्यस्मिन् अर्थे विद्यते, वर्तते, अस्ति, एतानि पदानि सन्ति. परन्तु अत्र विद्यते इति पदम् आत्मनेपदी, आत्मनेपदी पदस्य शाणचन्तरूपं, शाणचन्तरूपम् इति वदामः, तत् रूपमेव विद्यमान. तत्र रूपं त्रिषु लिङ्गेषु भवति, विद्यमानं, विद्यमानः, विद्यमाना. यथा वयं जानीमः अन्यं क्रियापदं वर्तते, वर्तते इत्यपि आत्मनेपदी, वर्तते इत्यस्मात् वर्तमान इति वदामः, कण्टिन्यूस् टेन्स्. वर्तमान इत्युक्ते कण्टिन्यूस्. अत्र यदि पदं परस्मैपदे अस्ति चेत् शतमन्त्ररूपाणि भवन्ति, यदि पदम् आत्मनेपदी अस्ति चेत् शाणजन्तरूपाणि भवन्ति. अत्र विद्यमान इति पदं शाणजन्तरूपम्. अनन्तरम् अत्र विद्यमानं, पुरतः विद्यमानं जानु, जानु इत्युक्ते किं भगिनि?
जानु थाई, नी.
जानु इत्युक्ते नी, जानु पुरतः. अत्र आसनं पश्यन्तु, पुरतः विद्यमानं जानु. अत्र किमर्थं विद्यमानं जानु? अत्र द्वितीया विभक्तौ अस्ति. अत्र जानु इति पदं नपुंसकलिङ्गे अस्ति, परन्तु पुंलिङ्गे अपि अस्ति इति भाति. पुरतः विद्यमानं जानु वक्रं कुर्वन् हस्तौ उपरि नयति. अस्मिन् वाक्ये हस्तौ इति विषये वदतु भगिनि.
हस्तौ द्वि द्वि वचने प्रथमविभक्ति
वा किमर्थमत्र हस्तौ उपरि नयति किं नयति नयति हस्तौ नयति कुत्र नयति उपरि नयति किं नयति हस्तौ नयति हस्तद्वयमस्ति अतः द्विवचने अपि च नयति इति क्रियापदं सकर्मकम् अतः अस्मिन् वाक्ये हस्तौ इति पदं द्वितीया विभक्तौ द्विवचने अस्ति उत्तमम् अनन्तरं कुतः एकः पादः पुरतः प्रसारणीयः तस्य उत्तरं किम्
समस्थितः एकः पादः पुरतः प्रसारणीयः
समस्थितिः इत्युक्ते किम्
समस्थितितः समस्थिति इत्युक्ते द्वे भाग द्वे पादौ समानरूपं
स्थापयामः अत्र सर्वे पश्यन्तु अत्र पदमस्ति अत्र धातुः अस्ति स्थाधातुः स्थाधातुतः सामान्यक्रियापदं तिष्ठति आगच्छति परन्तु भवती किं वक्तुमिच्छति निजन्तरूपं वक्तुमिच्छति निच् प्रत्ययान्तरूपम् इत्युक्ते अत्र तिष्ठति न स्थापयति अत्र स्थाधातुतः साधारणक्रियापदं तिष्ठति परन्तु निजन्तरूपं स्थापयति अहम् अत्र तिष्ठामि परन्तु अत्र पुस्तकं स्थापयामि तयोर्मध्ये भेदः अस्ति भगिनि अस्ति वा न अहम् अत्र तिष्ठामि तत्र तद् वाक्यमस्ति परन्तु अहं पुस्तकं स्थापयामि तथा एव अत्र पादं स्थापयामि अनन्तरं
बहिनी एकः प्रश्नः अस्ति
वदतु भगिनि
कुतः एकः पादः पुरतः प्रसारणीयः किं प्रत्ययः अस्ति प्र इस् उपसर्ग
प्र उपसर्गः अत्र दृष्ट्वा वदामि भगिनि अधुना मम पार्श्वे नास्ति प्रसारणीयः तत्रापि प्रत्ययः अस्ति उपसर्गः तदनन्तरं धातुः तस्य अनन्तरम् अन्यप्रत्ययः अनन्तरं वदतु भगिनि गीताञ्जलि भगिनी वदतु इदानीं पृष्ठतः विद्यमानस्य पादस्य जानु कथं भवेत्
तत् रज्जु भवेत्
वक्रं न करणीयं रुजु इत्युक्ते रुजु इत्युक्ते स्ट्रैट् उत्तमं तावदेव अनन्तरं वक्रं न करणीयं
वक्रम् इत्युक्ते
वक्रम् इत्युक्ते
नाट् स्ट्रेट् बेण्ट्
इत्युक्ते अत्र एकं पदमस्ति भवेत् इति पदमस्ति कोऽपि जानाति वा भवेत् इति रूपं किं तस्य रूपं किं कः वदति
विधिलिङ्ग्
पुरुषः कः
प्रथमपुरुष एकवचनं
उत्तमं प्रथमपुरुष एकवचनं विधिलिङ्गलकारः वक्रं न करणीयम् एतत् आसनं किमर्थं करणीयम्
एतत् अस्य आसनस्य अनेकानि प्रयोजनानि प्राधान्येन वक्षःस्थलस्य विस्तारणार्थं ततः च श्वासप्रश्वासक्रियायाम् अवरोधः निवारणार्थं वीरभद्रासनं सह करोति.
इत्युक्ते
अस्य आसनं श्वासप्रश्वास किञ्चित् निरोधः अस्ति, तत् दूरीकरोति, दूरीकरोति. प्राधान्येन वक्षस्थलं विस्तारणीयम् इति न जानामि.
वक्षस्थलविस्तारणार्थम् इत्युक्ते किं वंसि भगिनी वदतु.
अहं चिन्तयामि, संस्कृतपदे अहं न जानामि भगिनि, किं वदामि?
आङ्ग्लभाषायां वदतु.
विस्तारणार्थम् इत्युक्ते टु एक्स्पाण्ड् योर् चेस्ट्, बेसिक्लि टु ब्रोडन् योर् चेस्ट्.
अस्तु, उत्तमं. श्वासप्रश्वासक्रियायाम् अवरोधनिवारणार्थम् इत्युक्ते श्वासप्रश्वासक्रियायाम् अवरोधनिवारणार्थं वीरभद्रासनं सहकरोति. अत्र भगिनी भवती एव वदतु, वंशुसुधा भगिनी.
श्वास इत्युक्ते द ब्रेथ् वाट् यु टेक् इन् सैड्. प्रश्वास इत्युक्ते यदि उच्छ्वास भगिनी इति अहं चिन्तयामि. उच्छ्वास अवरोध निवारणार्थम् इत्युक्ते किञ्चित् क्लेशः यथा श्वासे अस्ति तत् निवारणार्थं वीरभद्रासनं सहायं करोति.
तावदेव, उत्तमम्. अत्र किञ्चित् अत्र एकं वक्तुमिच्छामि. अत्र वक्षस्थलस्य इति पदमस्ति. अत्र साधारणतया यदा कदापि विसर्गः अस्ति चेत् तस्य स्थले तत्र सकारः वा षकारः वा आगच्छति. परन्तु अत्र अहं गतसप्ताहे एव अहं पठितवती तस्मिन् विषये. अत्र वाशरि इति सूत्रमस्ति. वाशरि इति सूत्रेण अत्र विसर्गः यथावत् तिष्ठति, नो चेत् अत्र अन्यसकारः अपि आगन्तुं शक्नोति. इत्युक्ते वक्षः योगः स्थलः. तत्र द्वितीयपदस्य प्रथमवर्णः सकारः. यदि तथा विसर्गस्य अनन्तरं सकारः अस्ति चेत् वाशरि इति सूत्रेण अत्र रूपद्वयं सम्भवति. वक्षस्थलस्य अथवा वक्षः स्थलस्य. अत्र यदि वा इति दत्तमस्ति चेत् तत्र रूपद्वयं सम्भवति इति अस्य अर्थः. उत्तमम्. अनन्तरम् अत्र भानुचैतन्यमहोदय भवान् पठतु अत्र ज्ञानवर्धिनी.
महोदय,
वदतु भगिनि.
अस्य आसनस्य अनेकानि प्रयोजनानि अनेकानि इति पदं लिखितवान्, किन्तु केवल एक प्रयोजन विस्ताररूप दत्तम्.
एकमेव वा? अत्र पश्यतु भगिनि, वक्षस्थलविस्तारणार्थम् एकं प्रयोजनं, श्वासप्रश्वासक्रियायाम् अवरोधनिवारणार्थं प्रयोजनद्वयं दत्तमस्ति.
किन्तु वक्षस्थलं विस्तारणार्थं श्वासप्रश्वासक्रियायाम् अवरोधनिवारणस्य करोमि.
उत्तमम्. परन्तु आसनं तु उत्तममेव. वयं तावदेव. अनन्तरं महोदय करोतु, भानुचैतन्य महोदय.
भगिनि एकः अन्य प्रश्नः, क्षम्यतां महोदय, भगिनि
वदतु भगिनि.
करणीयः इति किं रूपं भगिनि?
अत्र उच्छ्वासः करणीयः.
करणीयः इति रूपं किं भगिनि? किं रूपं, लकारः रूपं किं भगिनि? किं लकारः रूपम् अस्ति
तत्रापि? अत्र यदि भवती जानाति चेत् तत्र धातुः अस्ति, मूलधातुः उपदेशावस्थायां मूलधातुः अस्ति डुक्रोन्. भवती अस्माकं व्याकरणवर्गे जानाति एव डुक्रोन् अस्ति. तत्र ण्यकारः अपि च डु इति तत्र आदिनिटुडवः अपि च इत्संज्ञकवर्णाः अपगच्छन्ति. तदनन्तरं क्रु एव तिष्ठति. तत्र क्रु इति धातुः, क्रु इति धातुतः कर् तत्र गुणादेशः भवति. यदि धातुः अजन्तधातुः अस्ति चेत् अत्र गुणादेशः भवति. गुण क्रु रुका रु रू गुणव गुणसंज्ञकवर्णः अर् भवति. क्रु इत्यस्मात् कर् आगच्छति. तदनन्तरम् अत्र ईय इति दत्तमस्ति. तत्र प्रत्ययाः सन्ति.
अहं चिन्तयामि यदि लकारः अस्ति, अहं न जानामि किं लकारः अस्ति इति अहं चिन्तयामि.
अत्र किञ्चित् ध्वनिः अस्ति, परन्तु तत्र प्रत्ययानां नाम किम् इति अहं न जानामि, न पठितवती. तदर्थम् अहं न वक्तुं शक्नोमि. अत्र करणीयः, प्रसारणीयः, अहं यदि जानामि चेत् आगामिसप्ताहे वदामि. अनन्तरम् अत्र
भगिनी प्रयोज नो प्राधान्येन इति तृतीय विभक्ति, किन्तु इत्युक्ते किम्
प्राधान्येन इत्युक्ते? अत्र उपकरणं नास्ति. साधारणतया तृतीयविभक्ति इत्युक्ते उपकरणं, करणम् इति वदामः. परन्तु अत्र तृतीयविभक्तेः उपयोगमपि बहुत्र भवति. तथा अत्र भाववाचकतृतीया इति वक्तुं शक्नुमः. अत्र उपकरणं नास्ति, केवलं प्राधान्य इति शब्दस्य तृतीयान्तरूपम्. अत्र अहं लेखन्या लिखामि तथा नास्ति. अत्र तृतीयविभक्तेः उपयोगं बहुत्र भवति. अत्र तु साधारणतया आनन्देन, कोपेन तथा वदामः. तथा एव अत्रापि प्राधान्येन इत्युक्ते मुख्यतया, प्रधानतया. इत्युक्ते मोस्ट् इम्पार्टेण्ट्लि. अस्तु, भानुचैतन्य महोदय वदतु. अत्र ज्ञानवर्धिनी समापयामः.
भवन्तः किं करपत्रं पठन्ति? मम पार्श्वे नास्ति इति अहं चिन्तयामि.
अस्तु महोदय, सप्तककाराः तस्मिन् करपत्रे एव अन्तिमभागः अस्ति, ज्ञानवर्धिनी. अत्र नो चेत् जयन्त महोदय भवतः करोति वा? करोतु.
आम्, ज्ञानवर्धिनी, योगक्षेमं वहाम्यहम्. ये साधकाः नित्यम् ईश्वरेण युक्ताः सन्ति, तान् सः ईश्वरः उद्धरति एव. न केवलम् उद्धरणम् अपि तु लौकिकविषयेषु तेषाम् आवश्यकताः अपि सः पूरयति इति. भगवान् श्रीकृष्णः अर्जुनं बोधयन् योगक्षेमं वहाम्यहम् इति कथयति. योगो नाम अप्राप्तस्य प्राप्तिः, क्षेमं नाम प्राप्तस्य रक्षणम् इति. जीवने योगः प्राप्तिः, क्षेमं तस्य रक्षणं च अत्यन्तम् अपेक्षितमेव. अनन्या चिन्तयन्तो माम्, ये जना पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्। श्रीमद्भगवद्गीता नवमध्यायः द्वाविंशति श्लोक।
उत्तमं। तावदेव महोदय, धन्यवादः। अधुना अत्र योगक्षेमं वहाम्यहम्, अत्र वहामि अहम्, अत्र सन्धिः कः कः वदति? अत्र भगवान् श्रीकृष्णः वदति योगक्षेमम् अहं वहामि। अत्र साधारणतया श्लोके अन्वयः पदानि यत्र कुत्रापि भवितुमर्हन्ति, परन्तु साधारणतया श्लोकं श्लोकस्य पठनानन्तरम् अन्वयवाक्यं रचनीयम्। अन्वयवाक्यं रचयामश्चेत् तत्र अहं योगक्षेमं वहामि इति दत्तमस्ति। यदि श्लोकं पश्यामश्चेत् अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्। यदि अन्वयवाक्यं रचयामश्चेत् कथं भवति अन्वयवाक्यं? ये जनाः, प्रथमतया ये जनाः, कीदृशजनाः, अत्र कीदृशजनाः इत्युक्ते ये जनाः अन्याः अन्याः इत्युक्ते अन्याः चिन्ताः विना
अनन्याः
मा अन्याः अन्याः इत्युक्ते अत्र अन्याः इति पदस्य अन्याः इति पदं किमर्थं दत्तमस्ति इत्युक्ते अन्य अन्या चिन्ता अन्यां चिन्तां विना वितौट् अदर् थाट्स् ये जनाः अन्याः अत्र चिन्ताः इति पदं न दत्तमस्ति, परन्तु मां चिन्तयन्तः पर्युपासते मां चिन्तयन्तः कोऽपि जानाति वा अत्र चिन्तयन्तः इति पदं दत्तमस्ति, नूतनं पदं। कः वक्तुमिच्छति अत्र? चिन्तयन्तः इति पदम् अत्र वयं जानीमः एव, चिन्तयति चिन्तयन्ति। क्रियापदं किं? चिन्तयति पदं जानीमः, बहुवचनरूपं चिन्तयन्ति, परन्तु अत्र किं दत्तमस्ति? चिन्तयन्तः, चिन्तयन्तः इति पदं शत्रन्तरूपम्। बालकः चिन्तयन् पठति, प्रेसेण्ट् कण्टिन्यूस् टेन्स् इति वदामः आङ्ग्लभाषायां। बालकः चिन्तयन् पठति, तथा एव बालकाः चिन्तयन्तः पठन्ति, अत्र बहुवचने अस्ति, शत्रन्तबहुवचनं। किमर्थं शत्रन्तबहुवचनं? तत्र वाक्ये कर्तृपदमस्ति जनाः। के जनाः? ये जनाः मां चिन्तयन्तः पर्युपासते, सर्वदा मां चिन्तयन्ति, चिन्तयन्तः पर्युपासते, तत्रापि उपासते एव, पर्युपासते इत्युक्ते परि उपसर्गपूर्वकः उपासते, उप उपसर्गपूर्वकः आस् धातुः इति अहं चिन्तयामि। ते कीदृशजनाः? ते नित्याभियुक्तानां, ये जनाः सर्वदा मां चिन्तयन्तः माम् उपासनं कुर्वन्ति तेषां जनानां योगक्षेमम् अहं वहामि। अत्र योगक्षेमम् इति पदं पदद्वयमस्ति, योगः अपि च क्षेमम्, अत्रैव दत्तमस्ति। किं? योगो नाम अप्राप्यस्य प्राप्तिः। अत्र शोभगिनी वदतु, अत्र अप्राप्यस्य प्राप्तिः इत्युक्ते किम्?
अप्राप्य दट् विच् हेस् नाट् बीन् गिवन् अचीव्ड् हेपण्ड् अप्राप्तस्य तस्य प्राप्तिः गिवन् आर् भवति तस्य प्राप्ति ते किं वदामि दट् हेपन्स् दट् इस् गिवन् वाट् एवर् इस् नाट् डेयर् आर् बट् वाण्टेड् इस् गिवन्।
उत्तमम्। इत्युक्ते योगः इत्युक्ते अप्राप्तस्य प्राप्तिः, यदि अस्माकं पार्श्वे नास्ति तस्य तं वयं प्राप्तुं शक्नुमः। अनन्तरं क्षेमम् इत्युक्ते प्राप्तस्य रक्षणं, यत् अस्माभिः प्राप्तं तस्य रक्षणं भगवान् करोति.
Whatever is given, whatever is not there is given, whatever is given is protected also.
सुन्दरं, तावदेव. जीवने योगः अपि च योगः इत्युक्ते प्राप्तिः, क्षेमम् इत्युक्ते रक्षणं. योगः अपि च रक्षणं द्वयमपि अत्यन्तम् अपेक्षितम्. अपेक्षितम् इत्युक्ते
डिसैर्ड्.
उत्तमं, तावदेव. अत्र वयम् अत्र करपत्रं समाप्तमस्ति. तदनन्तरम् अद्य वयं तावत् प्रत्ययान्तानां विषये किञ्चित् चिन्तनं कुर्मः. अत्र जयन्तमहोदय, भवान् वदतु किञ्चित्, अहं प्रश्नं पृच्छामि. अत्र अत्र महोदय महोदय
शृणोतु वा,
अत्र प्रतिध्वनिः महोदय, स्पीकर् फोन् मास्तु.
न, अहम् इयर्फोन्स् इति उपयोगं करोमि.
अत्र प्रतिध्वनिः अस्ति, अहं किञ्चित् म्यूट् करोमि. अन्म्यूट् कृत्वा वदतु महोदय. अत्र नो चेत् अत्र बहु प्रतिध्वनिः अस्ति, तदर्थमेव उक्तवती इयर्फोन्स् मास्तु, प्रतिध्वनिः सम्यक् न भवति. अनन्तरम् अत्र भवान् वक्तुमिच्छति चेत् भवान् यः क्षम्यतां महोदय, अत्र प्रतिध्वनिः अस्ति. अत्र भूमा भगिनी भवती वदतु, भवती ह्यः कुत्र गतवती?
श्वः अहं मन्दिरं गतवती.
ह्यः ह्यः अहं
ह्यः
ह्यः कुत्र गतवती?
ह्यः मन्दिरं गतवती.
इतोपि अन्यानि कार्याणि किं कृतवती?
अहं पाकशाले पाकं कृतवती.
पाकं कृतवती, उत्तमं. भवती किं पठितवती ह्यः?
ह्यः अहं गीतापारायणं पठितवती.
अपि च भवती किं श्रुतवती?
अहं आचार्यस्य प्रवचनं ह्यः श्रुतवती.
श्रुतवती, उत्तमं. इत्युक्ते अत्र इदानीं पर्यन्तं ह्यः ह्यः इत्यस्मिन् विषये वयं चिन्तनं कृतवन्तः. ह्यः इत्युक्ते भूतकालः, तदर्थम् अत्र किं कृतवती, कुत्र गतवती, किं पठितवती, किं श्रुतवती, किम् उक्तवती, एतानि पदानि अत्र भूतकालार्थे तेषाम् उपयोगं कुर्मः. एतानि पदानि क्तवतु प्रत्ययान्तानि रूपाणि. अत्र अद्य अस्माकं विषयः अस्ति क्तवतु प्रत्ययाः, क्तवतु प्रत्ययान्तरूपाणि. सर्वे प्रथमतया तत्र करपत्रमस्ति, क्तवतु रूपाणि इति करपत्रं सर्वे पुरतः स्थापयन्तु. एकवारं पदानि तेषां रूपाणि कथं भवन्ति इति पश्येम. क्तवतु रूपाणि द्वितीयं करपत्रम्.
गच्छति,
पठतु भगिनि एकवारं सर्वे. अत्र गच्छति इति गच्छति इति पदं वर्तमानकालरूपमस्ति गच्छति. पुंलिङ्गे किं भवति?
गतवान्. बहुवचनं पुल्लिङ्गं गतवन्तः. स्त्रीलिङ्ग एकवचनरूपं गतवती. स्त्रीलिङ्ग बहुवचनरूपं गतवत्यः.
उत्तमम्.
आगच्छति, आगतवान्, आगतवन्तः. पुल्लिङ्ग एकवचनं बहुवचनं, स्त्रीलिङ्ग एकवचनं आगतवती, स्त्रीलिङ्ग बहुवचनम् आगतवत्यः.
अत्र पश्यन्तु सर्वे, अत्र रूपाणि केवलं वयं प्रारम्भिकस्तरीय विद्यार्थिनः इति कृत्वा अत्र केवलं पुंलिङ्गे अपि च स्त्रीलिङ्गे एव रूपाणि दत्तानि, परन्तु नपुंसकलिङ्गे अपि रूपाणि भवन्ति. नपुंसकलिङ्गे रूपाणि कथं भवन्ति इत्युक्ते, यदि गच्छति इति पदं स्वीकुर्मः चेत् तत्र नपुंसकलिङ्गे गतवत् यानं गतवत् इति भवति. नपुंसकलिङ्गे बहुवचने वदामश्चेत् गतवन्ति, ह्रस्वैकारः भवन्ति, यानानि गतवन्ति. अत्र केवलं स्त्रीलिङ्गे अपि च पुंलिङ्गे एव रूपाणि दत्तानि, नपुंसकलिङ्गे अपि रूपाणि भवन्ति, तावत् प्रत्यान्तरूपाणि भवन्ति. वदतु भगिनि अनन्तरं.
पिबति, पीतवान्, पीतवन्तः, पीतवती, पीतवत्यः.
उत्तमम्. अत्र पश्यन्तु सर्वे, अत्र अहं इदानीमेव पठितवती. अत्र वयं जानीमः पिबति इति क्रियापदमस्ति, परन्तु तत्र धातुः अस्ति पा धातुः. यथा दा तथा एव अत्र पा धातुः अस्ति. पा धातुतः पिबति इति पदम् आगच्छति. तत्र एकं सूत्रमस्ति, घू मा स्था गा पा जहाति सां हलि. अहं पठितवती, घू मा स्था गा पा जहाति सां हलि इति सूत्रेण अत्र पा धातुतः पिबति इति रूपम् आगच्छति. अत्र पिबति इति क्रियापदस्य तावत् प्रत्यान्तरूपं पीतवान्, किञ्चित् नूतनं रूपं परन्तु अवगन्तव्यम्. अनन्तरं वदतु भगिनि.
नीतवान्, नीतवन्तः, नीतवत्यः.
भगिनि
वदतु.
भगिनी दाधातु समानरूप दत्तवान्, नाट् दीतवान्.
दत्तवान् दाधातुतः दत्तवान्, दाधातुतः दीतवान्.
गाधातु गाधातु अभवत्
यति
गीतवान्,
गीतवान्.
अत्र अत्र पाधातुतः पीतवान् इति आगतं. नयति, नीतवान्. आनयति, आ उपसर्गपूर्वकः, आ उपसर्गपूर्वकः. अत्र पश्यन्तु, यदि भवन्तः यान्तवान्तादेशसन्धिः पठितवन्तः चेत् अत्र नी इति धातुतः नयति इति रूपम् आगच्छति. नयति इत्यस्मात् एव नयनम् इति पदम् आगतम्. अत्र धातुः अस्ति नी धातुः, नी धातुतः नयति. आ उपसर्गपूर्वकः नी धातुः आनयति. अत्र पठतु भगिनि, भवती एव पठतु. आनीतवान्, आनीतवन्तः,
आनीतवन्तः, आनीतवती, आनीतवत्यः. इष्टति, इष्टवान्, इष्टवन्तः, इष्टवती, इष्टवत्यः.
अत्र पश्यन्तु सर्वे, विशति इति पदमस्ति, परन्तु तावत् प्रत्ययान्तरूपं विष्ट. तथा एव अत्र विशति, विष्टवान्, उपविशति, उपविष्टवान्. तत्र बहूनि सूत्राणि सन्ति एतेषां विषये. अत्र तथा किमर्थं शकारस्य स्थाने मूर्धन्यशकारः आगतः, तदनन्तरं किमर्थं तत्र विष्ट इति रूपम् आगतं. विष् धातुतः विष्ट, दृष् धातुतः दृष्ट, पृच्छ् धातुतः पृष्ट इति रूपाणि आगच्छन्ति. अत्र केवलं दृष्टः, विष्टः, पृष्टः इति वदामश्चेत् क्तान्तरूपं सम्भवति, परन्तु अत्र रूपाणि क्तवत् रूपाणि. क्ता इति एकः प्रत्ययः, तावतु अन्यप्रत्ययः, परन्तु अस्माकं विषयः अस्ति तावतु. अग्रिमं पठतु भगिनि.
पश्यति, दृष्टवान्, दृष्टवन्तः, दृष्टवती, दृष्टवत्यः. पृच्छति, पृष्टवान्, पृष्टवन्तः, पृष्टवती, पृष्टवत्यः. तिष्ठति, स्थितवान्, स्थितवन्तः, स्थितवती, स्थितवत्यः. उत्तिष्ठति, उत्थितवान्, उत्थितवन्तः उत्थितवती उत्थितवत्यः खादति खादितवान् खादितवन्तः खादितवती खादितवत्यः लिखति लिखितवान् लिखितवन्तः लिखितवती लिखितवत्यः पठति पठितवान् पठितवन्तः पठितवती पठितवत्यः हसति हसितवान् हसितवन्तः हसितवती हसितवत्यः चलति चलितवान् चलितवन्तः चलितवती चलितवत्यः
भगिनि अत्र अत्र एकवारं स्थगयामः अत्र सर्वे पश्यन्तु अत्र क्रियापदानि सन्ति खादति लिखति पठति हसति चलति क्रीडति एतानि पदानि एकवारं पश्यन्तु अत्र किं भवति खादति इति पदं खादितवान् इति भवति पठति पठितवान् इति भवति हसति हसितवान् तथा एव क्रीडति क्रीडित इति भवति तथा किमर्थं तथा भवति तस्मिन् विषये बहूनि सूत्राणि सन्ति इत्युक्ते अत्र इकारः आगतः खादति इति पदस्य तवत् रूपं खादित इति भवति इत्युक्ते तत्र किम् अभवत् इकारः आगतः तस्य इकारस्य आगमनम् एव इडागमः इति वदामः यदि अकारः आगच्छति चेत् अडागमः इति वदामः यदि वयं भूतकालरूपाणि पश्यामश्चेत् तत्र पठति अपठत् इति भवति इत्युक्ते तत्र अडागमः भवति परन्तु अत्र खादति इति पदं पदात् खादित इति रूपम् आगतं तत्र इकारः आगतः तस्य नाम अस्ति इडागमः इडागमः यदि धातोः इडागमः भवति चेत् सेट् इति वदामः यदि इडागमः न भवति तदा अनिट् इति वदामः सेट् इत्युक्ते इडागमः स इट् यस्य सः स इट् यस्य सः सेट् अनिट् इत्युक्ते तत्र इडागमः न भवति इत्युक्ते तत्र धातुम् अनुसृत्य तत्र इडागमः भवति वा न भवति वा इति वयं ज्ञातुं शक्नुमः केचन धातुषु केषुचित् धातुषु इडागमः भवति केषुचित् इडागमः न भवति अत्र पश्यन्तु दृष् धातुं स्वीकुर्मः चेत् दृष्टवान् तत्र इडागमः न भवति परन्तु खादति खादितवान् लिखति लिखितवान् पठति पठितवान् हसति हसितवान् चलति चलितवान् क्रीडति क्रीडितवान् इत्युक्ते अत्र इडागमः भवति कुत्रचित् इडागमः भवति कुत्रचित् न भवति यदि इडागमः भवति चेत् धातुः सेट् इति वदामः इडागमः न भवति चेत् सेट् धातुः अनिट् केचन धातवः वेट् भवन्ति वेट् इत्युक्ते तत्र भवितुम् अपि शक्नोति न भवितुम् अपि शक्नोति इत्युक्ते रूपद्वयं वैकल्पिकरूपं सम्भवति यदि वैकल्पिकरूपं सम्भवति चेत् वेट् इति वदामः तत्र एका प्रक्रिया अस्ति प्रक्रिया इत्युक्ते इडागमः एकः विषयः तस्मिन् विषये बहूनि सूत्राणि सन्ति अग्रिमं पठतु भगिनि
पचति पक्त्वा पक्ववान् पक्ववान् पक्ववत्यः त्यजति त्यक्तवान् त्यक्तवन्तः त्यक्तवती त्यक्तवत्यः वदति उदितवान् उदितवन्तः उदितवती उदितवत्यः
अत्र पश्यन्तु अत्र एकवारं पश्यन्तु सर्वे अत्र साधारणतया वयं जानीमः वदति इति पदं जानीमः परन्तु वक्ति इति पदमपि अस्ति परन्तु वदति इति पदं किञ्चित् प्रसिद्धं पदं वदति इति पदं वद् धातुतः आगच्छति परन्तु वदधातोः तवत् रूपम् उदितवान्, उदितवान् इति रूपं प्रसिद्धं नास्ति, परन्तु उक्तवान् इति रूपं प्रसिद्धं रूपम्। अत्र अत्र किं वक्तुमिच्छामि चेत् अत्र धातुद्वयमस्ति, वद् वद् धातुतः वदति इति क्रियापदमागच्छति, तस्य तवत् रूपम् उदितवान् उदितवती तथा भवति। वच् वच् धातुतः वक्ति इति क्रियापदमागच्छति, वक्ति इति क्रियापदात् तत्र वच् धातुतः उक्तवान् उक्तवती इति रूपाणि आगच्छन्ति, परन्तु तयोर्मध्ये भेदः नास्ति, वदति वक्ति रूपं द्वयमपि समानमेव, अर्थः समानः परन्तु रूपाणि भिन्नानि। वदति रूपं प्रसिद्धम्, उक्तवान् रूपं प्रसिद्धं, न तु उदितवान्। उत्तमम्। अनन्तरं
करोति कृतवान् कृतवन्तः कृतवती कृतवत्याः।
उत्तमम्। अग्रिमे पुटे किमस्ति, भवती एव पठतु भगिनि।
भूतकालरूपाणि करोति कृतवान् कृतवन्तः कृतवती कृतवत्यः, स्वीकरोति स्वीकृतवान् स्वीकृतवन्तः स्वीकृतवती स्वीकृतवत्यः, आप्नोति आप्तवान् आप्तवन्तः आप्तवती आप्तवत्यः,
अत्र अत्र एकवारं पश्यन्तु, अत्र क्रु क्रु इति धातुतः करोति अपि च कृतवान् इति रूपाणि आगतानि, तथा एव अत्र स्वीकरोति स्वीकरोति स्वीकृतवान्, अत्र आप्नोति आप् धातुः आप् धातुतः आप्तः अथवा आप्तवान् इति रूपाणि आगतानि, तथा एव प्रा उपसर्गपूर्वकः आप् धातुः प्रा उपसर्गपूर्व प्राप्नोति, तस्मात् प्राप्तः प्राप्तवान् इति रूपाणि आगतानि। यदि प्राप्तः इति वदामश्चेत् क्तान्तरूपं, प्राप्तवान् क्तवत् रूपं, प्राप्तवान् प्राप्तवन्तः, प्राप्तवती प्राप्तवत्यः। अत्र प्राप्तवान् इति पदस्य प्रातिपदिकं रूपं मूलरूपं प्राप्तवत्, यथा भवत् शब्दवत्। यदि भवन्तः जानन्ति चेत् भवान् शब्दः प्रथमाविभक्ति एकवचनरूपं भवान् इति अस्ति, तस्य प्रातिपदिकं रूपं भवत्, तथा एव अत्रापि प्राप्तवत् अथवा आप्तवत् कृतवत् इति प्रातिपदिकं, परन्तु प्रथमाविभक्तिरूपं कृतवान्। परन्तु वयं जानीमः अत्र एतानि रूपाणि सप्तसु विभक्तिषु भवन्ति, यथा भवान् शब्दवत् भवान् भवन्तौ भवन्तः, तथा एव तत्रापि एकविंशति रूपाणि सन्ति, तथा एव अत्रापि
एकविंशति
रूपाणि भवितुं शक्नोति अत्र, तथा एव अत्र, परन्तु अत्र भगिनि
भगिनि आप्तवान् प्राप्तवान् भेदः कः भेदः?
आप्नोति प्राप्नोति, अत्र प्राप्नोति इति क्रियापदम् अत्र अहं प्रातः अहं सायङ्काले हैदराबाद् नगरं प्राप्नोमि इत्युक्ते अहं गत्यर्थक तत्र अर्थद्वयमस्ति भगिनी, प्राप्नोति इत्यस्मिन् विषये अत्र अर्थद्वयं सम्भवति, इत्युक्ते अत्र गत्यर्थकधातुः अपि भवितुम् अर्हति। Actually, there are two meanings there. इत्युक्ते अत्र अहं हैदराबाद् नगरं प्राप्नोमि इत्यस्मिन् वाक्ये तत्र गत्यर्थक रीत्या क्रियापदं योजयामः, अहं धनं प्राप्नोमि तदपि वक्तुं शक्नुमः। अनन्तरं भगिनि वदतु, गुमा भगिनी वदतु अत्र।
शक्नोति शक्तवान् शक्तवन्तः शक्तवती शक्तवत्यः, शृणोति श्रुतवान् श्रुतवन्तः श्रुतवती श्रुतवत्यः गृह्णाति गृहीतवान् गृहीतवन्तः गृहीतवती गृहीतवत्यः
अत्र पश्यन्तु गृह्णाति गृह्णाति इति पदमस्ति अत्र ग्रहधातुः तत्र ग्रह धातुः अस्ति ग्रहधातुः अतः एव अत्र रूपं ग्रहीतः अथवा ग्रहीतवान् ग्रहीतवान् इति दत्तमस्ति आम् अनन्तरं
सङ्गृह्णाति सङ्गृहीतवान् सङ्गृहीतवन्तः सङ्गृहीतवती सङ्गृहीतवत्यः
क्रीणात्र सङ्गृह्णाति सङ्गृह्णाति अत्र तम् उपसर्गपूर्वकः ग्रहधातुः
क्रीणाति क्रीतवान् क्रीतवन्तः क्रीतवती क्रीतवत्यः जानाति ज्ञातवान् ज्ञातवन्तः ज्ञातवती ज्ञातवत्यः ददाति दत्तवान् दत्तवन्तः दत्तवती दत्तवत्यः रोदिति रुदितवान् रुदितवन्तः रुदितवती रुदितवत्यः
उत्तमं धन्यवादः भगिनी अत्र रोदिति इति क्रियापदमस्ति परन्तु अत्र रूपं किम् अभवत् रुदितवान् किमर्थं तथा इत्युक्ते अत्र धातुः अस्ति रुद् धातुः रुद् धातुतः तत्र गुणकार्यं भूत्वा रोदिति रूपम् आगच्छति परन्तु क्तवत् प्रत्ययान्तरूपं रुदितवान् क्तान्तरूपं रुदितः एतानि एव पदानि अत्र अस्माकम् अभ्यासपुस्तके अपि सन्ति भूतकालरूपाणि भवन्तः सर्वे जानन्ति एव एतानि पदानि तेषां पठनस्य आवश्यकता नास्ति अभ्यासपुस्तके पदानि कानि इति अनन्तरम् अत्र अहम् अत्र बहवः विषयाः सन्ति परन्तु अत्र एकमेव वक्तुम् इच्छामि अत्र तावत् प्रत्ययान्तरूपाणि साधारणतया वाक्ये विशेषणानि भवन्ति एकः स एव एकः मुख्यबिन्दुः एतानि पदानि विशेषणानि भवन्ति अपि च भूतकालार्थे भवन्ति अत्र तथा एव केषुचित् धातुषु इडागमः भवति केषुचित् इडागमः न भवति इति वयं ज्ञातवन्तः अनन्तरं कानिचन वाक्यानि रचयामः अधुना नो चेत् अत्र एकं करपत्रमस्ति यदि भवन्तः गृहे पठितुमिच्छन्ति चेत् पठन्तु अत्र करपत्रं दत्तवती अत्र तावत् प्रत्ययान्तानां विषये अत्र शोभा भगिनी भवती पठति वा अत्र करपत्रे किं दत्तमस्ति
किं करपत्रं भगिनी सारांशः अथवा
अत्र अहं कानिचन वाक्यानि लिखितवती अत्र केवलं तस्य
नाम सारांशः अस्ति करपत्रस्य
न केवलं करपत्रम् इति दत्तमस्ति
एकनिमिषम् अभ्यासपुस्तके सप्त अष्टत्रिंशत् पुटे भूतकालरूपाणि दत्तानि अहम्
अष्टात्रिंशत्तमे पुटे
भूतकालरूपाणि दत्तानि अहं देवालयं गतवती इति उदाहरणे गतवती इत्यस्मिन् पदे प्रत्ययस्य नाम त्ववतु प्रत्ययः तवतु प्रत्ययः मूलरूपम् अस्ति गतवत् तकारान्तपदं अत्र विसर्गमपि अस्ति मा अपि अस्ति ऐ मीन् अनुस्वारं मा विसर्गं तस्य रूपाणि गतवान् पुंलिङ्गे गतवती स्त्रीलिङ्गे
अत्र नपुंसकलिङ्गे अपि रूपाणि भवितुम् अर्हन्ति. अत्र नपुंसकलिङ्गे वदामश्चेत् गतवत् इति भवति. अनन्तरं
वाक्ये एतानि रूपाणि विशेषानि भवन्ति.
इत्युक्ते अत्र विशेषणानि भवन्ति इत्युक्ते अत्र बालकः बालकः पुस्तकं पठितवान् इति वाक्ये अत्र बालकः कीदृशः पठितवान् बालकः बालकः इति पदस्य विशेषणम् एव पठितवान् तथा एव बालकः जलं पीतवान् इति वदामश्चेत् अस्मिन् वाक्ये कीदृशबालकः पीतवान् बालकः किं पीतवान् जलं पीतवान् परन्तु कीदृशः बालकः इति वदामश्चेत् तत्र बालकशब्दस्य विशेषणं भवति तवत् प्रत्ययान्तरूपं तत्र मुख्यबिन्दवः बिन्दुद्वयमस्ति अत्र देर् आर् टु इम्पार्टेण्ट् पायिण्ट्स् तवत् प्रत्ययान्तरूपाणि भूतकालार्थे भवन्ति एकः विषयः अनन्तरं तत्र रूपं कर्तृपदस्य विशेषणं भवति. अग्रिमं पठतु भगिनि.
अत्र पुरुषभेदः नास्ति. अहं यथा अहं देवालयं गतवती, त्वं देवालयं गतवती, एषा देवालयं गतवती.
भवती अवगतवती वा? अत्र कर्तृपदं किम्? अहं देवालयं गतवती इत्यस्मिन् वाक्ये कर्तृपदं किम्?
अहम्
अहम् अहं शब्दस्य विशेषणम् एव गतवती. परन्तु अत्र कर्मपदमस्ति देवालयम् इति कर्मपदमस्ति. अत्र पुरुषभेदः नास्ति इत्युक्ते अहं योजयित्वा गतवती गतवती वदामः. त्वं गतवती, एषा गतवती, सा गतवती, सीता गतवती, अहं गतवती इत्युक्ते अत्र तवत् प्रत्यान्तानां विषये पुरुषभेदः न कदापि भवति. अग्रिमम्
अत्र लिङ्गभेदः अस्ति. लिङ्गभेदः अस्ति. रामः देवालयं गतवान्, सीता देवालयं गतवती, लोकयानं देवालयं गतवत्. अत्र कर्मपदं समानमस्ति, परन्तु रामः सीता लोकयानं पुंलिङ्गे स्त्रीलिङ्गे अपि नपुंसकलिङ्गे दत्तमस्ति. अतः क्रियापदानि यथा गतवान्, गतवती, गतवत् भवति.
उत्तमम् इत्युक्ते लिङ्गभेदः
अस्ति.
अस्ति लिङ्गभेदः अत्र दृश्यते. परन्तु एतानि पदानि क्रियापदानि इति न वदामः, परन्तु केवलं अस्माकं कृते प्रारम्भिकस्तरे विद्यार्थिनः कृत्वा केवलं क्रियापदम् इति वदामः, परन्तु एतानि पदानि क्रियापदानि न भवन्ति, तिङन्तपदानि न भवन्ति. एतानि केवलं विशेषणानि विशेषणानि. अत्र कर्तरिप्रयोगे वाक्यम् अस्ति चेत् कर्तुः विशेषणं, दिस् इस् द एड्जेक्टिव् दट् डिस्क्रैब्स् द सब्जेक्ट्. कर्तुः वर्णनं करोति. कर्तुः वर्णनं इत्युक्ते रामः गतवान्, रामः कीदृशः गतवान्, कुत्र गतवान्, देवालयं गतवान्. सीतापदस्य विशेषणमेव गतवती इत्युक्ते तवत् प्रत्यान्तानां विषये लिङ्गभेदः तु अस्ति. तदर्थमेव अत्र गतवान्, गतवती, गतवत् रूपाणि भवन्ति, परन्तु पुरुषभेदः न भवति. अनन्तरं
अत्र लङ्लकारस्य स्थाने तवतु रूपाणां प्रयोगं कुर्मः. इतोपि अन्ये विषयाः बहवः सन्ति. अग्रे गत्वा अस्माकं कक्षायां बहून् विषयान् ज्ञास्यामः.
अत्र इतोपि अत्र भवन्तः जानन्ति एव वचनभेदः अस्ति, तदर्थमेव अत्र देवालयम् अहं देवालयं गतवती. अत्र वाक्यानि स्त्रीलिङ्गे सन्ति तदर्थमेव, परन्तु पुंलिङ्गे अपि रचयितुं शक्नुमः. देवालयं गतवती, आवां गतवत्यौ, वयं गतवत्यः. अत्र स्त्रीलिङ्गे रूपं नदीशब्दवत् भवति. अत्र वचनभेदः अस्ति इत्युक्ते अत्र गतवती इति पदं नदीशब्दवत् नदीशब्दवत् एकविंशति रूपाणि सम्भवन्ति गति गतवती गतवत्यौ गतवत्यः उत्तमम् एते मुख्यबिन्दवः अनन्तरं धन्यवादः भगिनी अत्र जयन्तमहोदय भवान् पठतु अत्र अग्रिमं करपत्रं सारांशः
अस्तु भगिनि लकारातः तवतु प्रत्यान्ते परिवर्तनं पुरुषलिङ्गं स्त्रीलिङ्गम् एकवचने सः सा पुस्तकम् अपठत् सः पुस्तकं पठितवान् सा पुस्तकं पठितवती त्वं पुरुषलिङ्गं त्वं स्त्रीलिङ्गं पुस्तकम् अपठः त्वं पुस्तकं पठितवान् त्वं पुस्तकं पठितवती
भवान् किं क्षम्यतां महोदय अत्र किं वदामि चेत् अत्र तत्र सारांशः इत्युक्ते तावत् प्रत्ययान्तरूपाणि भूतकालार्थे तेषाम् उपयोगः भवति परन्तु वयं जानीमः एव लङ्लकारः अपि भूतकालार्थे एव भवति अत्र अस्मिन् कोष्टके अत्र सः पुस्तकम् अपठत् इति रूपं दत्तमस्ति अपठत् इति पदं पठति इति पदस्य लङ्लकाररूपं परन्तु अत्र उपरि दत्तमस्ति शीर्षिका लङ्लकारतः तवतु प्रत्ययान्ते परिवर्तनं कथं कुर्मः अत्र सः पुस्तकम् अपठत् अथवा सः पुस्तकं पठितवान् सा पुस्तकं पठितवती तयोर्मध्ये भेदः नास्ति रूपं समानं तथा एव मध्यमपुरुषे अपि पठितवान् पठितवती इति रूपाणि योजयितुं शक्नुमः किमर्थं तथा इत्युक्ते तत्र पुरुषभेदः नास्ति प्रथमं वाक्यं प्रथमपुरुषे अस्ति द्वितीयं वाक्यं मध्यमपुरुषे अस्ति तृतीयं वाक्यम् उत्तमपुरुषे अस्ति अहं पुस्तकम् अपठं लङ्लकाररूपम् अपठं परन्तु अहं पुस्तकं पठितवती अथवा पठितवान् इति अपि वक्तुं शक्नुमः तत्र किं दत्तमस्ति इत्युक्ते केवलं अत्र पुरुषभेदः नास्ति अधुना वदतु महोदय
अहं पुस्तकम् अपठं तवतु प्रत्यान्तरूपम् अहं पुस्तकं पठितवान् स्त्रीलिङ्गरूपम् अहं पुस्तकं पठितवती अग्रे द्विवचने तौ छात्रौ ते छात्रे पुस्तकम् अपठताम् तौ पुरुषलिङ्गं तौ छात्रौ स्त्रीलिङ्गं ते छात्रे पुस्तकम् अपठताम् तौ छात्रौ पुस्तकं पठितवन्तौ पुरुषलिङ्गं ते छात्रे पुस्तकं पठितवत्यौ स्त्रीलिङ्गं युवां पुरुषलिङ्गरूपं युवां पुस्तकम् अपठतं स्त्रीलिङ्गरूपं युवां पुस्तकम् अपठतं तवतु प्रत्यान्तरूपं युवां पुरुषलिङ्गरूपं युवां पुस्तकं पठितवन्तौ स्त्रीलिङ्ग तवतु प्रत्यान्तरूपं युवां पुस्तकं पठितवत्यौ बहुवचनरूपं द्विवचने अग्रिमरूपम् आवां पुस्तकम् अपठाव स्त्रीलिङ्गरूपम् इति आवां पुस्तकम् अपठाव तवतु प्रत्यान्तपुरुषलिङ्गरूपम् आवां पुस्तकं पठितवन्तौ तवतु प्रत्यान्तस्त्रीलिङ्गरूपम् आवां पुस्तकं पठितवत्यौ
अत्र महोदय भवान् किम् अवगतवान् इति वदतु अत्र केवलम् अहं चिन्तयामि अत्र रूपाणि द्विवचने सन्ति तत्रापि अत्र किं सारांशः कः इत्युक्ते केवलं अत्र द्विवचने पुरुषभेदः नास्ति नास्ति इति वदतु वदतु.
अस्तु भगिनि, अत्र बहुवचनरूपे पुरुषभेदं तवत् प्रत्ययान्तरूप अस्ति, लिङ्लकार रूपं नास्ति. अग्रे गच्छामः,
अग्रे पाठ अग्रे पाठतु.
अस्तु, पुल्लिङ्गस्त्रीलिङ्ग बहुवचने ते बालकाः पुस्तकम् अपठन्, ताः बालिकाः पुस्तकम् अपठन्. तावत् प्रत्ययान्तरूपं पुरुषलिङ्गरूपं ते बालकाः पुस्तकं पठितवन्तः. स्त्रीलिङ्गरूपं ताः बालिकाः पुस्तकं पठितवत्यः. यूयं पुस्तकम् अपठत्, स्त्रीलिङ्गरूपमिति यूयं पुस्तकम् अपठत्. तावत् प्रत्ययान्तरूपं पुरुषलिङ्गं यूयं पुस्तकं पठितवन्तः. स्त्रीलिङ्गरूपं यूयं पुस्तकं पठितवत्यः. वयं पुस्तकम् अपठाम, वयं पुस्तकम् अपठाम इति बहुवचनरूपे लङ्लकारे एकः रूपमस्ति, परन्तु तवतु प्रत्ययान्तरूपं पुरुषलिङ्गं वयं पुस्तकं पठितवन्तः. स्त्रीलिङ्गरूपमस्ति वयं पुस्तकं पठितवत्यः. अत्र लिङ्लकारे बहुवचनरूपं दत्तमस्ति, प्रथमपुरुष इति रूपं ते बालकाः पुस्तकम् अपठन्, ता बालिकाः पुस्तकम् अपठन्. अत्र लिङ्गभेदः नास्ति, परन्तु तवतु प्रत्ययान्तरूपे अत्र ते बालकाः पुस्तकं पठितवन्तः इति तवतु प्रत्ययान्तरूपम् अस्ति. स्त्रीलिङ्गे ताः बालिकाः पुस्तकं पठितवत्यः इति रूपमस्ति. मध्यमपुरुषम् अस्ति रूपं एकरूपम् इति अस्ति, यूयं पुस्तकम् अपठत्. द्वये लिङ्गेषु सेम् रूपमस्ति, परन्तु तवतु प्रत्ययान्तरूपं पुरुषलिङ्गवचने यूयं पुस्तकं पठितवन्त इति रूपमस्ति. स्त्रीलिङ्गे यूयं पुस्तकं पठितवत्यः, पठितवन्तः पुरुषलिङ्गं, पठितवत्यः स्त्रीलिङ्गम् इति भेदः अस्ति. तवतु क्रियापदं तवतु प्रत्ययान्तक्रियापदं रूपम्. उत्तमपुरुष लिङ् लङ्लकारे रूपं सेम् अस्ति, वयं पुस्तकम् अपाठाम, वयं पुस्तकम् अपाठाम. द्वयो लिङ्गे रूपम् अस्ति, सेम् अस्ति, परन्तु तवतु प्रत्ययान्तरूपे पठितवन्तः पुरुषलिङ्गम् अस्ति, पठितवत्यः स्त्रीलिङ्गरूपम् अस्ति.
अस्तु महोदय, धन्यवादः. अत्र किं वक्तुमिच्छामि इत्युक्ते, अत्र पुरुषलिङ्गम् इति न वदामः, पुंलिङ्गम् इति वदतु अग्रे गत्वा. अत्र केवलं किं वदामि इत्युक्ते, अत्र लङ्लकारं योजयित्वा वदामश्चेत् तत्र साधारणतया लिङ्गभेदः न दृश्यते. इत्युक्ते ते बालकाः अपठन्, ताः बालिकाः अपठन्, अत्र लिङ्गभेदः न दृश्यते. परन्तु तावत् प्रत्ययान्तानां विषये लिङ्गभेदः तु अस्ति, परन्तु पुरुषभेदः नास्ति इति एव अत्र दत्तमस्ति सारांशत्वेन. अत्र अग्रिमम् उषा भगिनी भवती पठति वा, अत्र शीघ्रं समापयामः. अग्रिम
लङ्लकारतः तवतु प्रत्ययान्ते परिवर्तनम्. लिङ्लकार प्रथमपुरुषः अपठत्, अपठताम्, अपठन्.
एकवारं लङ्लकारः लिङ्लकारः अपि अस्ति, परन्तु अत्र लङ् लकारः इति वदामः. लङ् इत्युक्ते भूतकालार्थे, लिङ् लकारः इत्युक्ते विधिलिङ् आशीर्लिङ् इति वदामः. लिङ् लकारः भिन्नः, लङ् लकारः भिन्नः. अत्र भूतकालार्थे लङ् लकारः, लङ् लकारः लङ्गि लङ्गि पदं, लङ्गि इति पदं दत्तमस्ति. लङ्गि इत्युक्ते लङ् इति पदस्य सप्तमी रूपं. यथा भवान् भवान् शब्दस्य सप्तमी रूपं भवति
भवति
अत्र ह्रस्वैकारः, तथा एव अत्र लङ् लङ् इति पदस्य सप्तमी रूपं लङि. अत्र सप्तमी रूपं दत्तमस्ति. लङ् गकारः नास्ति, परन्तु केवलं कवर्गीय अन्तिमव्यञ्जनं ञ अस्ति तदेव अत्र. लङ् कथम् उच्चारणीयं? लङ्गि
लङ्गि
वदतु वदतु तदेव. केवलं अत्र प्रथमाविभक्तौ तस्य रूपं लङ्
लङ् लङ्
तावदेव वदतु.
क्लिष्टं
प्रथमपुरुष अपठत् पुंलिङ्गं स्त्रीलिङ्गम्, अपठतां पुंलिङ्गं स्त्रीलिङ्गम्, अपठन् पुंलिङ्ग स्त्रीलिङ्गम्, वर्त तवतु तवतु प्रत्ययान्ते पठितवान् पुंलिङ्गं, पठितवती स्त्रीलिङ्गम्, पठितवन्तौ पुंलिङ्ग, पठितवत्यौ स्त्रीलिङ्ग, पठितवन्तः पुंलिङ्ग, पठितवत्यः स्त्रीलिङ्ग. लङ्गि मध्यमपुरुष, अपटः पुंलिङ्ग स्त्रीलिङ्ग, अपटतं पुंलिङ्ग स्त्रीलिङ्ग, अपटत पुंलिङ्ग स्त्रीलिङ्ग. तवतु प्रत्ययान्ते पठितवान् पुंलिङ्ग, पठितवती स्त्रीलिङ्ग, पठितवन्तौ पुंलिङ्ग, पठितवत्यौ स्त्रीलिङ्ग, पठितवन्तः पुंलिङ्ग, पठितवत्यः स्त्रीलिङ्ग. लङ्गि लङ्गि उत्तमपुरुषः, अपठं पुंलिङ्ग स्त्रीलिङ्ग, अपठाव पुंलिङ्ग स्त्रीलिङ्ग, अपठाम पुंलिङ्ग स्त्रीलिङ्ग. तवतु प्रत्ययान्ते पठितवान् पुंलिङ्ग, पठितवती स्त्रीलिङ्ग, पठितवन्तौ पुंलिङ्ग, पठितवत्यौ स्त्रीलिङ्ग, पठितवन्तः पुंलिङ्ग, पठितवत्यः स्त्रीलिङ्ग.
भवती किम् अवगतवती अत्र?
लङ् लकार मध्ये पुरुषभेदः
अत्र त्रयः बिन्दवः सन्ति. इत्युक्ते देर् आर् त्री इम्पार्टेण्ट् पायिण्ट्स्. एकमस्ति अत्र क्तवत् प्रत्ययान्तानां तस्य स्थाने लङ् रूपमपि योजयितुं शक्नुमः. इत्युक्ते लङ् लकारम् उपयुज्य अपि वाक्यं रचयितुं शक्नुमः, नो चेत् क्तवत् प्रत्ययान्तरूपमपि योजयितुं शक्नुमः. लङ् योजयित्वा वदामश्चेत् तत्र लिङ्गभेदः नास्ति, परन्तु पुरुषभेदः अस्ति. इत्युक्ते प्रथमपुरुष एकवचन द्विवचन बहुवचन, तत्र नवरूपाणि भवन्ति, नवरूपाणि स्मर्तव्यानि लङ् लकाररूपाणि. परन्तु क्तवत् प्रत्ययान्तानां विषये तथा न भवति. किमर्थं चेत् क्तवत् प्रत्ययान्तरूपाणि विशेषणानि अपि च तत्र सुबन्तपदानि, इत्युक्ते अत्र प्रातिपदिकं रूपम् अस्ति, अपि च एकविंशतिरूपाणि सम्भवन्ति. यथा भवान् शब्दवत् अथवा भवती शब्दवत् रूपाणि भवन्ति. अत्र केवलं तदेव दत्तमस्ति. अत्र लङ्गि अपि लङ् रूपमपि उपयुज्य वाक्यं रचयितुं शक्नुमः क्तवतु स्थाने. अत्र सारांशः अन्तिमं अन्ततो गत्वा किं दत्तमस्ति पठतु अत्र
संक्षेपः. सः सा, नो एकवचनं द्विवचनं बहुवचनं,
सः अथवा सा अपठत् तौ अथवा ते स्त्रीलिङ्ग अपठताम् ते अथवा ताः अपठन् मध्यमपुरुष त्वम् अपठः युवा अपठतम् यूयम् अपठत् उत्तमपुरुषः अहम् अपठम् आवाम् अपठाव वयम् अपठाम पठितवान् अथवा पुंलिङ्गमध्ये पठितवान् स्त्रीलिङ्ग पठितवती द्विवचन पठितवन्तौ पुंलिङ्ग पठितवत्यौ स्त्रीलिङ्ग बहुवचने पठितवन्तः पुंलिङ्ग पठितवत्यः स्त्रीलिङ्ग
इत्युक्ते अत्र किं दत्तमस्ति इत्युक्ते अत्र पुरुषभेदः न दृश्यते यदि सः सा त्वम् अहम् एतानि पदानि योजयित्वा वदामश्चेदपि अत्र पठितवान् पठितवती इति वदामश्चेत् सम्यक् भवति परन्तु अत्र लङ् लकारे वदामश्चेत् अपठत् अपठः अपठम् इति वदामः भिन्नरूपाणि भवन्ति तदेव अत्र सारांशः सर्वे अधुना वयं एकमेकं वाक्यं वदामः अत्र तवत् प्रत्यान्तानां रूपाणि योजयित्वा एकमेकं वाक्यं वदन्तु सर्वे अत्र अभ्यासपुस्तके क्रियापदानि सन्ति एकमेकं वाक्यं सर्वे वदन्तु भूमा भगिनी भवती वदतु
अभ्यासपुस्तकं किं पृष्टवान्
भूतकालरूपाणि किमपि वाक्यं पठति
पठति अहं ग्रन्थं पठामि अपठत् न न अपठत्
अपठम्
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 सारि क्षम्यताम्
अपठम् तवत् योजयित्वा वदतु
पठितवती अहम् अहं पठितवती ग्रन्थं पठितवती
पूर्णं वाक्यम्
अहं ग्रन्थं पठितवती
उत्तमं तावदेव उषा भगिनी भवती करोतु एकं वाक्यं वदतु
लिखति अलिखत् यः रामः ग्रन्थम् अलिखत्
तावतु
रामः ग्रन्थं लिखितवान्
उत्तमं शोभा भगिनी एकं वाक्यं
अहं ह्यः आपणे गतवती अथवा अहं ह्यः आपणे अगच्छत् आपणम् सारि आपणं कर्मपदम् आपणम् अगच्छम्
अथवा तावत् रूपं
तावत् रूपं गतवती आपणं गतवती
उत्तमं गीताञ्जलि भगिनी एकं वाक्यं
अहं केवलम् अल्पं संस्कृतं ज्ञातवती अहं केवलम् अल्पं संस्कृतं अज्ञातम्
अवगतवती
लङ्लकाररूप किम् अहं केवलम् अल्पं संस्कृतम् अज्ञातम्
अज्ञातं न तथा न जानाति अजानम्
अज्ञानम्
न अज्ञानं न अज्ञानं न जानाति अडागमः भूत्वा अत्र किं भवति अपठं तथा एव अजानम्
अजानम्
उत्तमम् उत्तमपुरुषे एकवचनं उत्तमं तावदेव वंशसुधा भगिनी एकं वाक्यम्
आं भगिनि अहं ह्यः चित्रमन्दिरे चित्रं दृष्टवती लङ् रूपमस्ति अपश्यत्
उत्तमं अनन्तरम् अत्र भानुचैतन्यमहोदय एकं वाक्यम्।
अहम् एकं वाक्यम् उक्त्वा तूष्णीं भवामि।
तत्र तस्मिन् वाक्ये तवत् रूपम् अस्ति वा? उक्त्वा क्त्वान्तरूपं, परन्तु अहं किं पृष्टवती? क्तवत् रूपं वदतु महोदय। क्त्वान्तरूपं
न स्थितवान्।
स्थितवान् उक्त्वा वदतु पुनः तदेव वाक्यम्।
अहम् एकं वाक्यम् उक्त्वा तूष्णीं स्थितवान्।
उत्तमम्। अनन्तरं जयन्त् महोदय एकं वाक्यं वदतु।
अहं बहु लड्डुकानि खादितवान्। अहं बहूनि लड्डुकानि अखादाम।
अखादम्
अस्तु भगिनि, खादम्।
तावदेव, अत्र तथापि अस्ति, परन्तु अग्रिमे सप्ताहे पुनः एकवारं मिलित्वा कथां पठिष्यामः। अधुना अत्र स्थगयामः। धन्यवादः सर्वेषां। नमस्कारः।
धन्यवादः।
धन्यवादः।
नमस्कारः।
नमस्कारः।